सन्नाइन्द्राग्नि भवतामवो विष्णन्द्रावरुणारातव्या समिन्द्रा सोमा सुविताय संयो सन्न इन्द्रा पूषणावाजसातौ सन्नो भगः समूनः संसो अस्तु सन्नः पुरन्धिः समूसन्तुरायः सन्नः सत्यस्य सुयमस्य संसः सन्नो अर्यमापूरुजातो अस्तु सन्नो धाता समुधर्तानो अस्तु सन्न उरुचे भवतु स्वधाभिः संरोदसे बृहते सन्नो अदृशन्नो देवानां सुहवान् सन्तु सन्नो अग्निर्ज्योतिरनेको अस्तु सन्नो मित्रावरुणावश्विनाशन् सन्नः सुकृतां सुकृतानि सन्तु सन्न इषिरो अभिवातुवातः सन्नो द्यावा पृथिवी पूर्वभूतौ समन्तरिक्षं दृशये नो अस्तु सन्न ओषधीर्वनिनो भवन्तु सन्नो रजसस्पतिरस्तु जिष्णुः सन्न इन्द्रो वसुभिर्देवो अस्तु समादित्येभिर्वरुणः सुशंसः सन्नो रुद्रो रुद्रेभिर्जलाशः सन्नस्पष्टाग्नाभिरिह शृणोतु सन्नः सोमो भवतु ब्रह्म सन्नः सन्नो ग्रावाणः समुसन्तु यज्ञाः सन्नः स्वरूणामितयो भवन्तु सन्नः प्रसुवः संवस्तु वेदिः सन्नः सूर्य उरुचक्षा उदेतु सन्नो भवन्तु प्रदिशश्चतस्रः सन्नः पर्वता ध्रुवयो भवन्तु सन्नः सिन्धवः समुसन्त्वापः सन्नो अदितिर्भवतु व्रतेभिः सन्नो भवन्तु मरुदस्वर्गाः सन्नो विष्णुः समुपूषा नो अस्तु सन्नो भवित्रं संवस्तु वायुः सन्नो देवः सवितात्राय मानः सन्नो भवन्तु शसो विभातिः सन्नः पर्जन्यो भवतु प्रजाभ्यः सन्नः क्षेत्रस्य पतेरस्तु शम्भुः ॐ उषापस्वसुस्तमः संवर्तयति वर्तनिं सुजातता अयावाजं देवहितं सने मम देम शतहीमा